शंकर भगवत पादैः श्रौते यस्मिन् पदं निदधे तत्पदसंयात्रेऽहं विद्यारण्याय ते नमो विदधे कृत्यं महदीयं श्रीशंकर गुरुराट् पुरा कृतवान् शिष्टं पुनरवतीर्णो विद्यारण्याख्यया व्यतनूत् सम्यग्राज्याधिकारेऽपि शक्तं ब्रह्मविदां परम् वन्देहं विशदप्रज्ञं विद्यारण्ययतीश्वरम् तुरुष्कसेनादौर्जन्यं जन्यैरेव चिकित्सितुं विद्यानगरसाम्राज्यम् प्राज्यं सृष्टवते नमः न क्वापि श्रुतपूर्वमद्भुतमिदं यत्कोऽपि विप्रोधने हीनश्चैकक एव निश्चितमतिः संकल्प्य कृत्यं महत् सम्पाद्याखिलसाह्यसम्पदमहो अस्थापयद्दुर्दमं साम्राज्यं भुवि धर्मरक्षणधिया न स्वार्थलेशेप्सया ब्रह्मक्षत्रसमिद्धबुद्धिविभवप्रोद्भूततेजोबलात् उद्गेलोग्रतुरुष्कसैन्यजलधिं संस्तभ्य दूराच्चिरं वेदं शास्त्रमथोद्दधार सकलाः यो भारतीयाः कलाः विद्यारण्ययतीश्वरं नमत भोः तं नूतनं शंकरम् आचार्यशंकरो ज्ञाने राजनीतौ बृहस्पतिः वसिष्ठः कर्मकाण्डेषु विद्यारण्यो महामुनिः।